ऋषयोऽवोचुः सूतसूत महाभाग व्यासशिष्य नमोऽस्तुते तदेव व्यासतो ब्रूहि भस्म माहात्म्यमुत्तमम् तथा रुद्राक्ष माहात्म्यम् नाम माहात्म्यमुत्तमम् तितयम् ब्रूहि सुप्रीत्या ममानन्दय मानसम् सूत उवाच साधु पृष्टम् भवद्भिश्च लोकानाम् हितकारकम् भवन्तो वै महाधन्या पवित्रा कुलभूषणाः येषाम् चैव शिवः साक्षात् दैवतम् परमम् शुभम् सदा शिवकथा लोके वल्लभा भवताम् सदा ते धन्याश्च कृतार्थाश्च सफलम् देहधारणम् उद्धृतम् च कुलम् तेषाम् ये शिवम् समुपासते शिवनाममुखे यस्य सदा शिव शिवेति च पापानि न स्पृशन्त्येव खदिरागारकम् युधा श्रीशिवाय नमस्तुभ्यम् मुखम् व्याहृतेदा तन्मुखम् पावनम् तीर्थम् सर्वपापविनाशनम् तन्मुखम् च तथा यो वै पश्यति प्रीतिमान्नरः तीर्थजन्यम् फलम् तस्य भवतीति सुनिश्चितम् यत्र यत्र सदा तिष्ठेदेतच्छुभतरम् द्विजाः तस्य स्पर्शनमात्रेण वेणीस्नानफलम् लभेत् शिवनाम विभूतिश्च तथा रुद्राश्चैव च एतत्त्रयम् महापुण्यम् त्रिवेणी सदृशम् स्मृतम् एतत्त्रयम् शरीरे च यस्य तिष्ठति नित्यशः तस्यैव दर्शनम् लोके दुर्लभम् पापनाशकम् तद्दर्शनम् यथा वेणी नोभयोरतरम्मना एवम् यो न विजानाति स पापिष्ठो न संशयः विभूतिर्यस्य नोभाले नागे रुद्रावधारणम् नाश्चेशिव महीवाणी तम् त्यजेत भयम् यथा शैवन्नाम यथा गङ्गा विभूतिर्यमुनामता रुद्राक्षम् विना प्रोक्ता सर्वपापविनाशिनी शरीरे च त्रयम् यस्य तत्फलम् चैकतस्थितम् एकतो वेणिकायाश्च स्नानयन्तु फलम् बुधैः तदेवम् तुलम् पूर्वम् ब्रह्मणा हितकारिणा समानम् चैव तज्जातम् तस्माद्धार्यम् सदा बुधैः तद्दिनम् हि समारभ्य ब्रह्मविष्णुवादिभिस्वरैः धार्यते त्रितयम् तच्च दर्शनात् पापहारकम् ऋषय ऊचुः ईदृशम् हि फलम् प्रोक्तम् नामादित्रितयोद्भवम् तन्माहात्म्यम् विशेषेण वक्तुमर्हसि सुव्रत सूत उवाच ऋषयो हि महाप्राणा सच्चैवा ज्ञानिनाम् वराः तन्माहात्म्यम् विषद्भक्त्या शृणुता दरतो द्विजाः सगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि भवस्नेहान्याभिप्राः प्रकाशक्रियरेऽधुना तस्तत्त्रितयमाहात्म्यम् सञ्जानादिजोत्तमाः महेश्वरम् विना सर्वम् ब्रह्माण्डे सदरत्परम् वच्यहम् नाम माहात्म्यम् यथा भक्तिसमासतः शृणुतप्रीतितोऽभिप्रा सर्वपापहरम् परम् शिवेति नामधावाग्नेर्महापातकपर्वताः भस्मीभवन्ति नायासान् सत्यम् सत्यम् न संशयः पापमूलानि दुःखानि विविधान्यपि शौनकः शिवनामैकनश्यानि नाम नश्यानि सर्वदा स वैदिकस्य पुण्यात्मा स धन्यस्य बुधोमतः शिवनामजपासक्तो यो नित्यम् भुवि मानवः भवन्ति विविधा धर्मास्तेषाम् सद्यः फलेन्मुखाः येषाम् भवति विश्वासः शिवनामजपे मुने पातकानि विनश्यन्ति यावन्ति शिवनामतः भुवि तावन्ति पापानि क्रियन्ते सनदैर्मुनैः ब्रह्महत्यादि पापानाम् राशीनाम् प्रमितान् मुने शिवनामद्रुतम् प्रोक्तम् नाशयत्यखिलान्नरैः शिवनामतरीम् प्राप्य संसाराद्धिनुवनन्ति ये संसारमूलपापानि तानि नश्यन्ति संशयम् संसारमूलभूतानाम् पातकानाम् महामुने शिवनामकुठारेण विनाशो जायते ध्रुवम् शिवनामामृतम् पेयम् पापदा वानदादितैः पापदावाग्निदप्तानाम् शान्तिस्तेरविनानि शिवेति नाम पीयूष वर्षधारा परिप्लुताः संसारतम मध्येऽपि न शोचन्ति कदाचन शिवनाम्नि महाभक्तिर्जाता येषाम् महात्मना तद्विधानाम् तु सहसा भक्तिर्भवति सर्वथा अनेकजन्मधैर्येण तपसप्तम् मुनीश्वर शिवनाम्नि भवेद्भक्ति सर्वपापापहारिणी यस्या साधारणी शम्भूनाम्नि भक्तिरखण्डिता तस्यैव मोक्षम् सुलभो नान्यस्येति मतिर्मम कृत्वा प्रेकपापानि शिवनाजागदाधरा सर्वपापविनिर्मुक्ता भवत्येव न संशयः भवन्ति भस्मसादृक्षादुदग्धा यथा वने तथा तावन्ति दग्धानि पापानि शिवनामतः यो नित्यम् भस्मभूतात्मा शिवनामजपादरः स तरत्येव संसारो महोरमिशोनक ब्रह्मस्मरणम् कृत्वा हत्वापि ब्राह्मणान् बहून् निलिप्यते नरः पापैः शिवनामजपादरः विलोम
साङ्ख्यवेदानखिला शिवनामजपरः संसारतरणोपाय इति पूर्वैर्विनिश्चितम् किं बहुक्त्या मुनिश्रेष्ठा श्लोकेनैवज्ञहम् शिवनाम्नो महिमानम् सर्वपापवहारम् पापानामरणम् शम्भोर्नाम्ना शक्तिः पावने शक्नोति पातकम् तावत् कर्तुम् नाभिनर क्वचित् शिवनाम प्रभावेण लेभे सद्गतिमुत्तमाम् इन्द्रद्युम्नरपः पूर्वम् महापापयुतो मुने तथा काचिद्विजायोषा सौ मुने बहुपापिनी शिवनाम प्रभावेण लेभे सद्गतिमुत्तमाम् इत्युक्तम् वो द्विजश्रेष्ठा नाम माहात्म्यमुत्तमम् शृणुध्वम् भस्म माहात्म्यम् सर्वपापप्रमाशनम् सूत उवाच द्विविधम् भस्म सम्प्रोक्तम् सर्वमङ्गलम् परम् तत्प्रकारमहम् वक्षे सावधानतया शृणु एकम् जेयम् महाभस्मम् द्वितीयम् स्वल्पसञ्जकम् महाभस्म इति प्रोक्तम् भस्म नानाविधम् परम् तद्भस्म त्रिविधम् प्रोक्तम् श्रौतम् स्मार्तम् च लौकिकम् भस्मैव स्वल्पसञ्जाहि बहुधा परिकीर्तितम् श्रौतम् भस्म तथा स्मार्ते द्विजानामेव कीर्तनम् अन्येषामपि सर्वेषामपरम् भस्म लौकिकम् धारणम् सम्मतः प्रोक्त द्विजानाम् मुनिपुङ्गवैः केवलम् धारणम् जेयमन्येषाम् मन्त्रवर्जितम् आग्नेयमुच्यते भस्म दग्धगो भयसम्भवम् तदपि द्रव्यमित्युक्तम् त्रिपुण्डस्य महामुने अग्निहोत्रोत्थितम् भस्म सङ्ग्राह्यम् वामनीषिभिः अन्ययज्ञोत्थितमवापि त्रिपुण्डस्य च धारिणे अग्निरित्यादि निर्मन्त्रैर्जाबाले पुनिषद्गतैः शब्दभिर्दूलनम् कार्यम् भस्मना सजलेन च वर्णानामाश्रमाणाम् च सङ्गतो समतोऽपि वा त्रिपुण्ड्रादूलनम् प्रोक्तम् जाबालैरादरेण च भस्मनोद्धूलनम् चैव यदा त्रियत्त्रिपुण्डकम् प्रमादादपि मोक्षार्थी न च देतिविश्रुतिः शिवेन विष्णुना चैव तथा त्रियत्त्रिपुण्डकम् उमादेवी च लक्ष्मीश्च वाचान्याभिश्च नित्यशः ब्राह्मणैः ैर्वैश्यै शूद्रैरपि च सङ्करैः अपभ्रंशैर्धितम् भस्म त्रिपुण्ड्रोद्धूलनात्मनः उद्धूलनम् त्रिपुण्डम् च श्रद्धया नाचरन्ति ये तेषाम् नास्ति समाचारो वर्णाश्रमसमन्वितः उद्धूलनम् त्रिपुण्डम् च श्रद्धया नाचरन्ति ये तेषाम् नास्ति निर्मुक्तः संसारात् जन्मकोटिभिः उद्धूलनम् त्रिपुण्डम् च श्रद्धया नाचरन्ति ये तेषाम् नास्ति शिवज्ञानम् कल्पकोटिशतैरपि उद्धूलनम् त्रिपुण्डम् च श्रद्धया नाचरन्ति ये ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः उद्धूलनम् त्रिपुण्डम् च श्रद्धया नाचरन्ति ये तेषामाचरितम् सर्वम् विपरीतफलाय हि महापातकयुक्तानाम् जन्तूनाम् सर्वविद्विषाम् त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढम् मुने शिवाग्निकार्य कृत्वा गुर्यात्मुच्यते सर्वपापैस्तु सृष्टेन भस्मना नरः स्थितेन भस्मना कुर्यात्सन्ध्यम् चतुर्मुण्डकम् सर्वपापि निर्मुक्तः शिवेन सह मोदते स्थितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम् योऽसावान् भूतानि हि लोकानात्तो मृगो भवेत् अकृत्वा भस्मना स्नानम् न जपेत् वै षडक्षरम् त्रिपुण्ड्रम् च रचित्वा तु विधिना भस्मना जपेत् अदयो वाधमो वापि सर्वपापान्वितेऽपि वा उषः पापान्वितो वापि मूर्खो वा पतितोऽपि वा यस्मिन् देशे वसेन्नित्यम् भूतिशासनसंयुतः सर्वतीर्थैश्च क्रतुभिः सान्निध्यम् क्रियते सदा त्रिपुण्ड्रसहितो जीवः पूजः सर्वैसुरासुरैः पापान्वितोऽपि शुद्धात्मा किम् पुनः श्रद्धया युतः यस्मिन् देशे शिवज्ञानी भूतिशासनसंयुतः गतो यदृच्छयाद्यापि तस्मिन् तीर्थाः समागताः बहुमात्र किमुक्तेन धैर्यम् भस्म सदा बुधैः लिङ्गार्चनम् सदा कार्यम् जप्यो मन्त्रषडक्षरः ब्रह्मणा विष्णुना वापि रुद्रेण मुनिभिस्सुरैः भस्मधारणमाहात्म्यम् न शक्यम् परिभाषितुम् इति वर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि च पापात् सर्वत्रिपुण्ड्रस्य धारणस्योऽपि मुच्यते ये भस्मधारिणम् त्यक्त्वा कर्म कुर्वन्ति मानवाः तेषाम् नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः तेनावीतम् गुरोः सर्वम् तेन सर्वमनुष्ठितम् येन विप्रेण शिरसि त्रिपुण्ड्रम् भस्मना कृतम् ये भस्मधारिणम् दृष्ट्वा नराः कुर्वन्ति ताडनम् तेषाम् चण्डालतो जन्म ब्रह्मनुपश्चिता मानस्तोकेन मन्त्रेण मन्त्रितम् भस्मधारयेत् ब्राह्मण क्षत्रियश्चैव प्रोक्तेष्वङ्गेषु भक्तिमान् वैश्यास्त्रियमैकेन शुद्धं वञ्जाक्षरेण तु अन्यासां विधवास्त्रीणां विधि प्रोक्तश्च शूद्रवत् पञ्चब्रह्मादिमुनिभिर्गृहस्थस्य विधीयते त्र्यम्बकेन मनुना विधिरै ब्रह्मचारिणः अघोरेणाथ मुनिना विनिस्मृतः यतिस्तु प्रणवेनैव त्रिपुण्ड्रादीनिकारये अतिवर्णाश्रमे नित्यं शिवोऽहं भावनात्परं शिवयोगी च नियतामीशानेनापि धारये न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् अन्यैरपि यथा देवे सदेति शिवशासनम् भस्मानेन यावन्तः कणाः स्वाङ्गे प्रतिष्ठिताः तावन्ति शिवलिङ्गानि ततो धृत्ते हि धारकाः ब्राह्मणाश्चत्रिया वैश्या शूद्राश्चापि सुसङ्गताः त्रयोदविधवा बाला प्राप्ता पाखण्डिकास्तथा ब्रह्मचारी गृहीवन्यः सन्न्यासी वा व्रती तथा नार्यो भस्मत्रिपुण्ड्राङ्गा मुक्ता एव न संशयः ज्ञानाज्ञानधृतो वापि वह्निना समोजः ज्ञानाज्ञानधृतं भस्म पावयेत् सकलन्नरं नाश्नीयाचलमन्नमल्पविवास्माच्चरित्या विना भुक्त्वा वाथ गृहीवनीपतियते वर्णो न तथा शङ्करः एवो भुङ्गरकरं प्रयात् सदा गायत्रि जापेन वर्णानान्तु यतेस्तु मुख्यप्रणवाज्जापेन मुक्तिर्भवेत् त्रिपुण्ड्रये विन्दन्ति निन्दन्ति शिवमेव ते धारयन्ति च ये भक्त्या धारयन्ति तमेव ते दिग्भस्मरयितं बालं दिग्भ्याम शिवमालयं दिग्नीशार्चनं जन्म दिग्विद्या शिवमाश्रयां ये निन्दन्ति महेश्वरं देवताभूतं हरं ये निन्दन्ति त्रिपुण्डधारणकरं दोषस्तु तद्दर्शने ते वै शङ्करशूकरासुरकरश्चक्रोश्रुतोपमा जाता एव भवन्ति पापपरमास्ते नारका केवलं ते दृष्ट्वा शिशिभास्करौ निशिदिने स्वप्ने विनो केवलं पश्यन्तु श्रुतिरुद्रशूकजपतो मुच्येत तेनादृताः तत्सम्भाषणतो भवद्भिनरकं निस्तारमाना स्थितं ये भस्मादिविधारणं विपुरुषं निन्दन्ति मन्दाहिते न तान्त्रिकस्त्वधिकृतो नोर्मपुण्ड्रधरौ मुने सन्ततश्चक्रचिह्नोत्र शिव यद्ये बहिष्कृतः तत्रैते बहवो लोका बृहज्या बालचोदिताः ते विचार्या प्रयत्नेन ततो भस्मरतो भवेत्
यच्चन्दनैश्चन्दनैर्भस्मना विभूतिभालोपरि किञ्चनापि धार्यं सदा नो यदि सति बुद्धयः तेभिस्त्रिपुण्डमङ्गलावधिधारणीयं भस्मद्विजादिभिरथो निमिद्वाभिरेवं तद्वत् सदाश्रमवतां विशदा विभूतिर्धार्यापवर्गफलदा सकला गहन्त्री त्रिपुण्डं कुरुते यस्तु भस्मनाविधिपूर्वकं महापापकसङ्घातैर्मुच्यते चोपपातकैः ब्रह्मचारी गृहस्थी वा वानप्रस्थोऽथ वा यतिः ब्रह्मक्षत्राश्च विश्रुद्रास्तथान्ये पतिता धमाः उद्धूलनं त्रिपुण्ड्रं च धृत्वा शुद्धा भवन्ति च भस्मनो विधिना सम्यक् परपराशिव्याय च भस्मधारी विशेषेण स्त्रीगोहत्या संशयः परद्रव्यापहरणं परधाराभिमर्शनं परनिन्दापरक्षेत्र हरणं परपीडनं स्वस्यारामादिहरणं गृहदादादि कर्म च गोहिरण्यमहिष्यादितिरकम्बलवाससाम् अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः दाशवेश्यावतङ्गेषु वृषदीषु नटीषु च गरस्वलासु कन्यासु विधवासु च मैथुनं मांसचर्मरसादीनां लवणस्य च विक्रयः पैशून्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् एवमादीन्यसङ्ख्यानि पापानि विविधानि च सद्य एव नश्यन्ति त्रिपुण्ड्रस्य च धारणा शिवद्रव्यापहरणं शिवनिन्दा च कुत्र निन्दा च शिवभक्तानां प्रायश्चित्तेन शुध्यति रुद्राक्षं यस्य गात्रेषु ललाटेषु त्रिपुण्ड्रकं स चाण्डालोऽपि सम्पूज्यो वर्णवर्णो नमोत्तमः यानि तीर्थान् लोकेऽस्मिन् गङ्गाद्याश्वरिदर्शयाः स्नातो भवति सर्वत्र ललाटेतु त्रिपुण्ड्रकं सप्तकोटिमहामन्त्रा पञ्चाक्षरपुरसराः तथान्ये कोटिशो मन्त्रा शैव कैवल्यहेतवः अन्ये मन्त्रांश्च देवानां सर्वसौख्यरामुने ते सर्वे तस्य वश्यासुर्यो विभर्ति त्रिपुण्ड्रकं सहस्रं पूर्वजातानां सहस्रं जनयेषदां सोऽंशजानां ज्ञातीनाम् उद्धरेत्यस्त्रिपुण्ड्रकं इह भुक्त्वा किला भोगान् दीर्घायुष्याधिवर्जितः जीवितान्ते च मरणं सुखेनै ಶಿವ ಪ್ರಪದ್ಯತೆ ಅಷ್ಟೈಶ್ವರ್ಯ ಗುಣೋಪೇತಂ ಪ್ರಾಪ್ಯ ದಿವ್ಯ ವಪು ಶಿವಂ ದಿವ್ಯಂ ವಿಮಾನಂ ಆರುಹ್ಯ ದಿವ್ಯ ಸ್ತ್ರೀಶ ಸೇವಿತಂ ವಿದ್ಯಾಧರಾಣಾಂ ಸರ್ವೇಷಾಂ ಗಂಧರ್ವಾಣಾಂ ಮಹೌಜಸಾಂ ಇಂದ್ರಾದಿ ಲೋಕಪಾಲಾನಾಂ ಲೋಕೇಶು ಚ ಯಥಾಕ್ರಮಂ ಭುಕ್ವಾ ಭೋಗಾನ್ ಸುವಿಪುಲಾನ್ ಪ್ರದೇಶಾನಾಂ ಪದೇಶು ಚ ಬ್ರಹ್ಮಣ ಪದಮಾಸಾದ್ಯ ತತ್ರ ಕನ್ಯಾಶತಂ ರಮೇತ್ ತತ್ರ ಬ್ರಹ್ಮಾಯುಷೋ ಮಾನಂ ಭುಕ್ವಾ ಭೋಗಾನ್ ಅನೇಕ್ಷಃ ವಿಷ್ಣುಲೋಕೇ ಲಭೇತ್ ಭೋಗಂ ಯಾವತ್ ಬ್ರಹ್ಮ ಶತಾಧರಃ ಶಿವಲೋಕಂ ತದ ಪ್ರಾಪ್ಯ ಲಭ್ಯೇಷಂ ಕಾಮೋಕ್ಷಯಂ ಶಿವಸಾಯುಜ್ಯಮಾಪ್ನೋತಿ ಸಂಶಯೋ ನಾತ್ರ ಜಾಯತಾ ಸರ್ವೋಪನಿಷದಾಂ ಸಾರಂ ಸಮಾಲೋಕ್ಯ ಮುಹುರ್ಮುಹು ಇದಮೇವ ಹಿ ನಿರ್ಣೀತಂ ವರಂ ಶ್ರೇಯಸ್ತ್ರಿ ಪುಂಡ್ರಕಂ ವಿಭೂತಿ ನಿರ್ದೇಯೋ ವೈ ಬ್ರಹ್ಮಣ ಸೌನ್ಯಜಾತಕಃ ಪ್ರಯಾತಿ ನರಕೇ ಘೋರೇ ಯಾವತ್ ಬ್ರಹ್ಮ ಚತುರ್ಮುಖ ಶ್ರಾದ್ಧೇ ಯಜ್ಞೇ ಜಪೇ ಹೋಮೇ ವೈಶ್ವದೇವೇ ಸುರಾಚನೆ ತ್ರಿಪುಂಡ ಪೂತಾತ್ಮ ಮೃತ್ಯುಂಜಯತಿ ಮಾನವ ಜಲಸ್ನಾನಂ ಮಲತ್ಯಾಗೇ ಭಸ್ಮಸ್ನಾನಂ ಸದಾ ಶುಚಿ ಮಂತ್ರಸ್ನಾನಂ ಹರೇತ್ ಪಾಪಂ ಧ್ಯಾನಸ್ನಾನೇ ಪರಂ ಪದಂ ಸರ್ವತೀರ್ಥೇಷು ಯತ್ಪುಣ್ಯಂ ಸರ್ವತೀರ್ಥೇಷು ಯತ್ಫಲಂ ತತ್ಫಲಂ ಸಮವಾಪ್ನೋತಿ ಭಸ್ಮಸ್ನಾನಕರೋ ನರಃ ಭಸ್ಮಸ್ನಾನಂ ಪರಂ ತೀರ್ಥಂ ಗಂಗಾಸ್ನಾನಂ ದಿನೇ ದಿನೇ ಭಸ್ಮರೂಪೇ ಶಿವ ಸಾಕ್ಷಾತ್ ಭಸ್ಮತ್ರೈಲೋಕ್ಯ ಪಾವನಂ ತದರ್ದೂಲನ ತದ್ಯಾನಂ ನ ತದ್ದಾನಂ ಜಪೇನ ಸಹ ತ್ರಿಪುಂಡ್ರೇಣ ವಿನಾಯೇನ ವಿಪ್ರೇಣ ಯದನುಷ್ಠಿತಂ ವಾನಪ್ರಸ್ಥಂ ಕನ್ಯಾನಾಂ ದೀಕ್ಷಾಹೀನಾನಾಂ ತಥಾ ಮಧ್ಯಾಹ್ನ ಪ್ರಾಕಲೈರ್ಯುಕ್ತಂ ಪರತೋ ಜಲವರ್ಜಿತಂ ಏವಂ ತ್ರಿಪುಂಡ್ರಂ ಯಃ ಕುರ್ಯಾನ್ ನಿತ್ಯಂ ನಿಯತ ಮಾನಸಃ ಶಿವಭಕ್ತಸ್ಯ ವಿಜ್ಞೇಯೋ ಭುಕ್ತಿಂ ಮುಕ್ತಿಂಚ ವಿಂಜತಿ ಯತ್ಯಾಗೇನೈವ ರುದ್ರಾಕ್ಷ ಏಕೋಪಿ ಬಹು ಪುಣ್ಯದಃ ತಸ್ಯ ಜನ್ಮ ನಿರರ್ಥಂ ಸ್ಯಾತ್ ತ್ರಿಪುಂಡ್ರರಹಿತೋ ಯದಿ ಏವಂ ತ್ರಿಪುಂಡ್ರಮಾಹಾತ್ಮ್ಯಂ ಸಮಾಸಾತ್ ಕಥಿತಂ ಮಯಾ ರಹಸ್ಯಂ ಸರ್ವಜಂತೂನಾಂ ಗೋಪನೀಯಮಿದಂ ತ್ವಯಾ ತಿಸ್ರೋ ರೇಷಾ ಭವೇತ್ಯೇವ ಸ್ಥಾನೇಷು ಮುನಿಪುಂಗವಾ ಲಲಾಟಾದಿಷು ಸರ್ವೇಷು ಯಶೋಕ್ಷೇಷು ಹೃದೈಧುನೈ ಭ್ರುವೋರ್ಮಧ್ಯಂ ಸಮಾರಭ್ಯ ಯಾವದಂತೋ ಭವೇತ್ ಭ್ರುವೋ ತಾವತ್ ಪ್ರಮಾಣ ಸಂಧಾರ್ಯ ಲಲಾಟಂ ಚ ತ್ರಿಪುಂಡ್ರಕಂ ಮಧ್ಯಮಾನಾಮಿಕಾಂಗುಲ್ಯ ಮಧ್ಯೆ ಚ ಪ್ರತಿಲೋಭತಃ ಅಂಗುಷ್ಠೇನ ಕೃತಾ ರೇಖಾ ತ್ರಿಪುಂಡಾಖ್ಯಾ ವಿಧೀಯತೆ ಮಧ್ಯೇಂಗುಲಿವಿರಾದಾಯ ತಿಸ್ರುಭಿರ್ಭಸ್ಮಯತ್ನತಃ ತ್ರಿಪುಂಡ್ರಂ ಧಾರಯೇ ಭಕ್ತ ಭುಕ್ತಿ ಮುಕ್ತಿ ಪರಂಪರಂ ತಿಗ್ಮೃಣಾಂ ಚಾಪಿ ರೇಖಾನಾಂ ಪ್ರತ್ಯೇಕಂ ನವ ದೇವತಾ ಸರ್ವಯಾಗೇಷು ಆವಖ್ಯೇ ಸಾವಧಾನತಯಾ ಶೃಣು ಅಕಾರೋಗಾರಪತ್ಯಾಗ್ನಿ ಭೂರ್ಧರ್ಮಸ್ಯ ರಜೋ ಗುಣಃ ಋಗ್ವೇದಶ್ಚ ಕ್ರಿಯಾಶಕ್ತಿ ಪ್ರಾತಃ ಸವನಮೇವ ಚ ಮಹಾದೇವಶ್ಚ ರೇಖಾಯಾ ಪ್ರಥಮಾಯಾ ಚ ದೇವತಾ ವಿಜ್ಞೇಯಾ ಮುನಿಷಾರ್ದುಲಾ ಶಿವದೀಕ್ಷಾಪರಾಯಣೈ ಉಕಾರೋ ದಕ್ಷಿಣಾಗ್ನಿಶ್ಚ ನಭಸ್ತತ್ವಂ ಯಜುಸ್ತಥಾ ಮಧ್ಯಂಜಿನಂಚ ಸವನಮಿಚ್ಛಾಶಕ್ತ್ಯಂತರಾತ್ಮನೇ ಮಹೇಶ್ವರಶ್ಚ ರೇಖಾಯಾ ದ್ವಿತೀಯಾಯಾಶ್ಚ ದೇವತಾ ವಿಜ್ಞೇಯಾ ಮುನಿಷಾರ್ದುಲ ಶಿವದೀಕ್ಷಾಪರಾಯಣೈ ಮಕಾರ ಹವನೀಯೋ ಚ ಪರಮಾತ್ಮ ತಮೋ ದಿವೋ ಜ್ಞಾನಶಕ್ತಿ ಸಾಮವೇದ ತೃತೀಯಂ ಸವನಂ ತಥಾ ಶಿವಶ್ಚೈವ ಚ ರೇಖಾಯಾ ತೃತೀಯಾಯಾಶ್ಚ ದೇವತಾ ವಿಜ್ಞೇಯಾ ಮುನಿಷಾರ್ದುಲ ಶಿವದೀಕ್ಷಾಪರಾಯಣೈ ಏವಂ ನಿತ್ಯಂ ನಮಸ್ಕೃತ್ಯ ಸದ್ಭಕ್ತ್ಯಾ ಸ್ಥಾನ ದೇವತಾ ತ್ರಿಪುಂಡ್ರಂ ಧಾರಯೇ ಕ್ಷುದ್ಧ ಭುಕ್ತಿ ಮುಕ್ತಿಂ ಚ ವಿಂದತಿ ಇತ್ಯುಕ್ತಾ ಸ್ಥಾನ ದೇವಾಶ್ಚ ಸರ್ವಾಂಗೇಷು ಮುನೀಶ್ವರ ತೇಷಾಂ ಸಂಬಂಧಿನೋ ಭಕ್ತ್ಯಾ ಸ್ಥಾನಾನಿ ಶೃಣು ಸಾಂಪ್ರತಂ ದ್ವಾತ್ರಿಂಶ ಸ್ಥಾನಕೇ ವಾದ ಘೋಷ ಸ್ಥಾನಕೇ ಪಿ ಅಷ್ಟಸ್ಥಾನೇ ತಥಾ ಚೈವಂ ಪಂಚಸ್ಥಾನೇ ಪಿತಾನ್ಯಸೆ ಉತ್ತಮಾಂಗೇ ಲಲಾಟೇ ಚ ಕರ್ಣಯೋರ್ನೇತ್ರಯೋಸ್ತಥಾ ನಾಸಾವಕ್ತಗಲೇಶ್ವೇಮ ಹಸ್ತಯೋರ್ಭಯೋಸ್ತಥಾ ಪೂರ್ವರೇ ಮಣಿವಂಧೇ ಚ ಹೃದಯ ಪಾರ್ಶ್ವಯೋರ್ದಯೋ ನಾಭೌ ಮುಷ್ಕದ್ವಯೇ ಚೈವ ಮೂರ್ಭೇ ಚ ಜಾನುನಿ ಜಂಗಾದ್ವೇ ಪದದ್ವಂದ್ವೇ ದ್ವಾದಂಶ ಸ್ಥಾನಮುತ್ತಮಂ ಅಗ್ನಿಂ ಭೂವಾಯುಕ್ಲೇಶ ದಿಕ್ಪಾಲಾನ್ಯಸು ಧರಾಧೃಷ್ಟ ಸೋಮಶ್ಚ ಆಪುಷ್ಟೇವಾರಿಲ್ಲಃ ಪ್ರತ್ಯುಪಶ್ಚಾದಶ್ಚ ವಸವೋಷ್ಟೌ ಪ್ರಕೀರ್ತಿತಾ ಏತೇಷಾಂ ನಾಮ ಮಾತ್ರೇಣ ತ್ರಿಪುಂಡ್ರಂ ಧಾರಯೇತ್ ಬುಧಾ ಕುರ್ಯಾದ್ವಾ ಷೋಡಶ ಸ್ಥಾನೇ ತ್ರಿಪುಂಡ್ರಂ ತು ಸಮಾಹಿತಃ ಶೀರ್ಷಕೇ ಚ ಲಲಾಟೇ ಚ ಕಂಠೇ ಚ ಸದ್ವಯೇ ಭುಜೆ ಪೂರ್ಪಣೇ ಮಣಿಬಂಧೇ ಚ ಹೃದಯೇ ನಾಭಿ ಪಾರ್ಶ್ವೇ ಪೃಷ್ಠೇ ಚೈವ ಪ್ರತಿಷ್ಠಾಯ ಯಜೇತ್ರಾಭಿ ದೇವತೆ ಶಿವಂ ಶಕ್ತಿಂ ತಥಾ ರುದ್ರ ಮೀಶಂ ನಾರದಮೇವ ಚ ವಾಮಾದಿನೋ ಶಕ್ತೇಶ್ಚ ಏತಾ ಷೋಡಶ ದೇವತಾ ನಾಸತ್ಯೋ ದಸ್ರಶ್ಚೈವ ಅಶ್ವಿನೌ ದ್ವೌ ಪ್ರಕೀರ್ತಿತೌ ಅಥವಾ ಮೂರ್ತಿಕೇಶೇ ಚ ಕರ್ಣಯೋರ್ವದನೆ ತಥಾ ಬಾಹುದ್ವಯೇ ಚ ಹೃದಯೇ ನಾಭ್ಯಾ ಮುರುಗೇ ತಥಾ ಜಾನುದ್ವಯೇ ಚ ಪದಯೋ ಪೃಷ್ಠಭಾಗೇ ಚ ಷೋಡಶ ಶಿವಶ್ಚಂದ್ರಶ್ಚ ರುದ್ರಃ ಕೋ ವಿಘ್ನೇಶೋ ವಿಷ್ಣುರೇವ ವಾ भीष्टैव हृदये शम्भुस्तथा नाभौ प्रजापतिः नागश्च नागकन्या च उभयो ऋषिकन्यकाः पादयोश्च समुद्राश्च तीर्था पृष्ठे विशारदः इत्येवं षोडशस्थानमष्टस्थानमधोच्यते गुह्यस्थानं ललाटश्च कर्णद्वयमुत्तमम् अंशयुग्मं च हृदयं नाभिरित्येवमष्टकम् ब्रह्मादर्शयः सप्त देवताश्च प्रकीर्तिताः इत्येवं तु समुद्दिष्टं भस्म विद्भिर्मुनीश्वराः अथवा मस्तकं बाहु हृदयं नाभिरेव च पञ्चस्थानानि मुन्याहुर्धारणे भस्मविज्जनाः यथा सम्भवनं कुर्यात् देशकालाद्यपेक्षया उद्दूलनेऽपि शक्तेश्च त्रिपुण्ड्रादीनि कारये त्रिनेत्रं त्रिगुणाधारं त्रिदेवजनकं शिवं तन्वन्म शिवायेति ललाटे त्रिपुण्डकम् ईशाभ्यान्नमयित्युक्त्वा पार्श्वयोश्च त्रिपुण्डकम् बीजाभ्यान्नमयित्युक्त्वा धारयितु प्रकोष्ठयोः कुर्यात् पितृभ्यां य उमेशाभ्यां ततोपरि भीमायेति पृष्ठे शिरसः पश्चिमे तथा ॐ